विभक्तिं पठितवन्तः गते सप्ताहे शत्रुपत्यस्य तृतीयाविभक्तिं पठितवन्तः. सम्यक्, वयम् अस्मिन् सप्ताहे एतां विभक्तिं पठामः. वारिजे, भवती प्रथमं वाक्यं पठति वा?
आम्, धावते बालकाय लेखनीं ददाति.
सम्यक्, धावते बालकाय इति का विभक्तिः? समीचीनं, चतुर्थी. अस्मिन् सप्ताहे चतुर्थी विभक्तिं पठामः, धावते बालकाय. सम्यक्, भरत.
क्रीडभ्यः छात्रेभ्यः पाठः न रोचते.
क्रीडभ्यः छात्रेभ्यः पाठः न रोचते. किं वचनं तत्र?
ओ ओ आम्, बहुवचनं.
बहुवचनं, का विभक्तिः?
चतुर्थी विभक्तिः.
चतुर्थी, सम्यक्. सुमे,
पाकं कुर्वते पित्रे जलं ददातु.
समीचीनं. अनीशा,
पठद्भ्यः बालेभ्यः अलसाः असूयन्ति.
समीचीनं. गिरे,
निद्रां कुर्वद्भ्यां सहोदराभ्यां रमेशः क्रुध्यति.
किं वचनं तत्र?
द्विवचनं.
द्विवचनं, समीचीनं. नील,
हरिः पृच्छते मित्राय धनं दत्तवान्.
सम्यक्. वारिजे,
आगच्छद् यः भवद्भ्यः नमः.
भरत,
खादते युवकाय इतोपि एकां दोसां ददातु.
सम्यक्. कुहा,
प्रशस्तिं प्राप्नुवते बालकाय ते धनं दत्तवन्तः.
समीचीनम्. सो एतानि रूपाणि सन्ति. वयम् एतावत् पर्यन्तं प्रथमविभक्तिं, द्वितीयविभक्तिं, तृतीयविभक्तिं च पठितवन्तः. इदानीं चतुर्थीविभक्तिरूपाणि पठामः. चतुर्थीविभक्त्याः प्रयोगं वयं कदा कुर्मः?
यदा ददाति.
समीचीनं. यदा दानं करोति, यस्मै ददाति तस्य चतुर्थी विभक्ति. उत्तमम्. अन्यत्, एतानि वाक्यानि पश्यति चेत् तत्र प्रयोगः कदा कृतः?
नमः.
नमः, उत्तमं. नमः, नमः इति पदस्य प्रयोगे चतुर्थी भवति. अनन्तरं तत्र कतिचन क्रियापदानि सन्ति, अन्यानि क्रियापदानि, तेषां वदतु.
रोचते.
रोचते, सम्यक्. यस्मै रोचते तस्य चतुर्थी विभक्तिः. अन्यत्, निद्रां कुर्वद्भ्यां सहोदराभ्यां रमेशः क्रुध्यति. तत्र किमर्थं चतुर्थी? क्रुध्यति इति क्रियापदस्य प्रयोगे वयं चतुर्थेः उपयोगं कुर्मः. तथैव असूयति. असूयति इति अर्थं जानन्ति वा? असूयति इति जलस्.